नित्यं हि विद्या चिन्तनम् नित्यं च विद्यामन्थनम् नित्यं हि विद्यासर्जनम् नित्यं च विद्याजीवनम्।
Yeah.